कथरापूर्वा कथरापराजो कथा जाते कवयः को विवेद विश्वात्मनाभिभृतो यद्धनामविवर्ते देहानि सक्रियेव भूरिन्द्वे अचरन्ति चरन्तम् पद्बन्धम् गर्भामपदी दधाते नित्यम् न सूनम् पित्रोरुपस्थेत्यावारक्षतम् पृथिवीनो अभ्वात् नेहो दात्रमदीतेरधर्मम् भुवे स्वर्वदवधम् नमस्वत् भद्रोदसी जनयतम् च चित्रेत्यावारक्षतम् पृथिवीनो अभ्वात् अतप्यमाने अवसावन्ती अनुष्यावरोदसी देवपुत्रे उभे देवानामुभयेभिरह्नाम् जाभारक्षतम् पृथिवीनो अभ्वात् सङ्गच्छमाने युवति समन्ते सुधा राजामि मित्रोरुपस्थे अभिजिघ्रन्ति भुवनस्य नाभिम् जाभारक्षतम् पृथिवीनो अभ्वात् गुर्वे सत्मने बृहति हृदेन हुवे देवानामवासानित्री दधादेये अमृतम् सुप्रतीकेद्याभारक्षतम् पृथिवीनो अभ्वात् उर्वी पृथ्वी बहुले दूरे अनन्ते उपब्रुवे नमसा यज्ञे अस्मिन् दधादेये सुभगे सुप्रतूर्तीद्याभारक्षतम् पृथिवीनो अभ्वात् देवान् वायच्च कृमागच्छिदागस्सखायम् वासनमिज्जास्पतिम् वा इयम् धीर्भूया अवजानमेधाम् जाभारक्षतम् पृथिवीनो अभ्वात् उपवासम् दानर्या मामाविष्टामुभे मामूती अवसासचेता भूरे च कर्यस्तुतास्तराजे रामदन्तयिषयमदेवाः ऋतम् दिवे तदमोजम् पृथिव्याभिश्रावाय प्रथमम् सुमेधाः पातामाद्यादुरिलादभीगे पिता माता च रक्षतामवोभिः इदम् या वा पृथिवी सत्यवस्तुमि धर्मातर्यदिहो बभ्रुवे वा भूतम् देवानामभवे अवोभिर्विद्यामेणम् विजनम् धीरदानम्